स्य स्तोत्रम् नूनं त्वं भगवान् साक्षात् हरिर्नारायणो व्ययः अनुग्रहाय भूतानां धत्से रूपं जलौकसां नमस्ते पुरुषश्रेष्ठस्थित्युत्पत्त्यप्ययेश्वर भक्तानां न प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् न तेरविन्दाक्षपदोपसर्पणं मृषा भावेत् सर्वसुहृत्प्रियात्मनः यथेतरेषां पृथगात्मनां सतां मदीतृषु यद्वपुरुद्भुतं हिनः इति श्रीमद्भागवते चतुर्विंशतितमाध्याये मत्स्यस्तोत्रम्।